इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। भारतीय जनता पार्टीति दलस्य वरिष्ठः नेता नरेन्द्रमोदी अद्य सायं नैरन्तर्येण तृतीयं वारं प्रधानमन्त्री पदस्य शपथ स्वीकरिष्यति। मन्त्रिपरिषदः अपि च शपथ ग्रहणम् अद्य। आकाशवाणी दिल्ली राष्ट्रपति भवनात् शपथ ग्रहण समारोहस्य साक्षात् प्रवाचनं सायं पादोन सप्तवादनात् आरभ्य आकाशवाणी सजीव वार्ता वाहिनीषु प्रसारणं भविष्यति। श्री प्रेम सिंह तमांगः श्वः सिक्किम राज्यस्य मुख्यमंत्री पदे शपथ अंगीकरिष्यति। ओडिशायां बुधवासरे भारतीय जनता पार्टीति दलस्य प्रथम मुख्यमंत्रिणः शपथ ग्रहण समारोहस्य सज्जता संचलति। अपि च अद्य आईसीसी विंशति प्रतिविंशति विश्व चषक प्रतिस्पर्धायां भारत पाकिस्तानयोः मध्ये द्वन्द्वः। अथ वार्ताः विस्तरेण। केन्द्रीय नवीन प्रशासनस्य अद्य भावमानस्य प्रतिज्ञा ग्रहण समारोहस्य सज्जता सम्पन्ना। राष्ट्रपतिः द्रौपदी मुर्मुः एनडीए संसद दलस्य नेतारं नरेन्द्रमोदिनं नवीन प्रशासनस्य निर्माणाय आमन्त्रितवती। शपथ ग्रहण समारोहः अद्य सायं सपाद सप्तवादने राष्ट्रपति भवनस्य प्रांगणे भविता। राष्ट्रपतिः द्रौपदी मुर्मुः श्रीनरेन्द्रमोदिनं तस्य मन्त्रिपरिषदः सदस्यांश्च पदस्य गोपनीयतायाश्च शपथं ज्ञापयिष्यति। श्रीमोदी परह्यः राष्ट्रपतिना सह मेलनं कृत्वा नवीन प्रशासनस्य निर्माणस्य च प्रस्तावं प्रस्तुतवान्। राष्ट्रपतिभवनात् बहिः मोदी न्यगदत् यत् राष्ट्रिय जनतांत्रिक गठबन्धनम् इति दलं सुदृढं सुस्थिरं विकासोन्मुखं च प्रशासनं निर्माष्यति। श्रीमोदिना उक्तं यत् जनाः राष्ट्रिय जनतांत्रिक गठबन्धनम् इत्यस्मै एकम् अवसरं दत्तवन्तः। अपि च एतत् अष्टादशं लोकसभा नवीनानां यूनां च ऊर्जायाः स्रोतः अस्ति। विदेशमन्त्रालयेन सूचितं यत् श्रीलंकायाः राष्ट्रपतिः रानिल विक्रमसिंघे, मालदीवस्य राष्ट्रपतिः डॉ मोहम्मद मुइज़ु, सेशेलस्य उपराष्ट्रपतिः अहमद अफीफः, बांग्लादेशस्य प्रधानमन्त्री शेख हसीना, मॉरिशस देशस्य प्रधानमन्त्री प्रविन्द कुमार जुगनौथः, नेपालस्य प्रधानमन्त्री पुष्प कमल दहलः प्रचण्ड, भूटानस्य च शेरिंग तोबगे इमे सर्वेपि समारोहे भागं ग्रहीष्यन्ति। एते नेतारः अस्माकं संवाददातृभिः सूचितं यत् श्रीमोदिनः अनवरतं तृतीयं वारं प्रधानमन्त्री पदस्य शपथ ग्रहण समारोहे भागं ग्रहीतुं निकटवर्तीनां देशानां विभिन्नाः नेतारः आमन्त्रिताः। श्रीमोदी अद्य शपथ ग्रहण पूर्वं स्वदिल्ली आवासे चाय पर चर्चा, चाये पान संहिता चर्चा इति आयोजिता। अस्मिन् भारतीय जनता पार्टीति दलस्य नेता अमित शाहः, जगत प्रकाश नड्डा, डॉ एस जयशंकरः, निर्मला सीतारमणः, नितिन गडकरी, धर्मेन्द्र प्रधानः, पीयूष गोयलः, ज्योतिरादित्य सिंधिया, किरेन रिजिजुः च सम्मिलिताः आसन्। लोक जनशक्ति पार्टीति दलस्य रामविलास दलस्य प्रमुखः चिराग पासवानोऽपि प्रधानमन्त्रिणः आवासे अमिलत। आकाशवाणी दिल्ली राष्ट्रपति भवनात् शपथ ग्रहण समारोहस्य साक्षात् प्रवाचनं सायं पञ्चचत्वारिंशन्निमेषाधिक षड्वादनादारभ्य स्वीय एफएम गोल्ड इन्द्रप्रस्थ तथा अहर्निशम् आकाशवाणी सजीव वार्तावाहिनीषु प्रसारयिष्यति। आकाशवाणी इत्यस्य यूट्यूब प्रवाहिकायां आकाशवाणी एयर इत्यत्र अपि अस्य कार्यक्रमस्य प्रसारणं यथासमयमेव भविष्यति। अहमदाबाद, बेंगलुरु, चेन्नई, कटक, गुवाहाटी, हैदराबाद, इम्फाल, कोलकाता, मुंबई, तिरुवनन्तपुरम आदिषु क्षेत्रेषु राजधानी आकाशवाणी स्थानकानि स्वराज्य संचालनेषु स्वक्षेत्रीय भाषासु प्रवाचनं करिष्यन्ति। यत् राज्यानाम् एतेषु सर्वेषु प्राथमिक वाहिनीषु स्थानीय रेडियो स्थानकेषु च प्रसारितं भविष्यति। श्री प्रेम सिंह तमांग श्वः सायं चतुर्वादने सिक्किमस्य मुख्यमंत्री पदे शपथम् अंगीकरिष्यति। सिक्किम क्रांतिकारी मोर्चा इति दलस्य प्रमुखः श्री तमांग द्वितीयं वारं मुख्यमंत्री पदे प्रतिज्ञां स्वीकरोति। सम्प्रत्येव सम्पन्ने सिक्किम विधानसभा निर्वाचने एसकेएम दलेन द्वात्रिंशदासनेषु एकत्रिंशदासनानि विजितानि, एकम् आसनं सिक्किम डेमोक्रेटिक फ्रंट इति दलस्य अंके जातम्। अस्माकं वार्ताहरेण सूचितं यत् एसडीएफ प्रमुखः सिक्किम प्रदेशस्य पूर्व मुख्यमंत्री पवन चामलिंगः उभयोः आसनयोः पराजितवान्। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। ओडिशायां बुधवासरे भारतीय जनता पार्टीति दलस्य प्रथम मुख्यमन्त्रिणः शपथ ग्रहण समारोहस्य सज्जता संचलति। तद्दिने प्रातः भाजपा विधान मण्डल दलस्य उपवेशनं भविता। भारतीय ऋतु विज्ञान विभागेन पश्चिमोत्तर भारते अद्यारभ्य उष्ण तरंग प्रवाह संभावितः। विभागेन संसूचितं यत् आगामिषु पंच दिवसेषु मध्य पूर्व भारतस्य उत्तर प्रदेश उत्तर पूर्व मध्य प्रदेश राज्येषु भीषणा उष्णता भविष्यति। ऋतु विज्ञान विभागस्य वैज्ञानिकः डॉ आरके जेनामणिना आकाशवाण्याः वार्ताहराः संसूचिताः यत् आगामिषु त्रिदिवसेषु मध्य महाराष्ट्र सहितं देशस्य दक्षिण क्षेत्रेषु वृष्टिः संभाव्यते। भारतस्य ऋतु विज्ञान विभागेन रत्नागिरि सिंधुदुर्ग सतारा कोल्हापुर मण्डलेषु न्यूनात् अतिवृष्टेः नारंगवार्णिकी संचेतना प्रसारिता। नासिक अहमदनगरयोः च कृते वज्रपातस्य विद्युद्योतनस्य च नारंगवार्णिकी संचेतनापि प्रसारितास्ति। अद्य प्रातः मुम्बईनगरस्य उपनगरेषु च अनेकेषु भागेषु निम्नवृष्टिः अभवत्। आईएमडी इत्यनेन मुम्बई नगरस्य ठाणे रायगढ़ पालघर सहितानाम् अन्येषां च विविधानां मण्डलानां कृते पीतवार्णिकी संचेतना ख्यापिता अस्ति। इजराइल देशः गजापट्टी क्षेत्रस्य नुसीरत स्थले स्वीयान् बन्धक भूतान् चतुरः नागरिकान् आतंकीय संघटनस्य कारितवान् हमासस्य निग्रहणात् विमोचनं कारितवान्। इमे नागरिकाः विगते वर्षे अक्टूबर मासस्य सप्तमे दिनांके नोवा संगीत समारोहस्यावसरे अपहृताः। विमोचिताः बन्धकाः उपचाराय चिकित्सालये पंजीकारिताः। तेलुगुदेशम् दलस्य राष्ट्रियः अध्यक्षः चन्द्रबाबू नायडू जूनमासस्य द्वादश दिनांके आन्ध्रप्रदेशस्य मुख्यमंत्री पदस्य शपथं स्वीकरिष्यति। समारोहः विजयवाड़ायां भविता। श्रीनायडुः चतुर्थं वारं राज्यस्य मुख्यमंत्री भविष्यति। फ्रेंच ओपन टेनिस स्पर्धायाः अन्त्यचक्रे अद्य पेरिस इत्यत्र स्पेनस्य कार्लोस अल्काराजस्य द्वन्द्वः जर्मन्याः एलेक्जेंडर ज्वेरेवेण भविष्यति। एकविंशति वर्षीयस्य अल्काराजस्य अयं तृतीया ग्रैंड स्लैम प्रतिस्पर्धा अस्ति। तत्रैव ज्वैरेवः प्रथमं वारं अस्याः प्रतियोगितायाः अन्त्यं चक्रं सम्प्राप्नोत्। अद्य आईसीसी विंशति प्रतिविंशति विश्वचषक प्रतिस्पर्धायां भारत पाकिस्तानयोः मध्ये द्वन्द्वो भविष्यति। न्यूयॉर्क नगरस्य नासाउ काउंटी अन्तर्राष्ट्रिय क्रिकेट क्रीडांगणे द्वितीय समूह अ क्रीडायां भारतदलं प्रतिद्वन्दिनं पाकिस्तानदलं सम्मुखीकरिष्यति। अस्य बहुप्रतीक्षितस्य द्वन्द्वस्य प्रसारणं भारतीय मानक समयानुसारं सायं अष्टवादने भविष्यति। इति वार्ताः।